अथ कैवल्याष्टकम् मधुरम् मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् पावनम् पावनेभ्योऽपि हरिर्नामैव केमलम् आब्रह्मस्तम्भपर्यन्तम् सर्वम् मायामयम् जगत् सत्यम् सत्यम् पुनः सत्यम् हरिर्नामैव केवलम् स गुरुः स पिता चापि सा माता बान्धवोऽपि सः शिक्षयेच्चेत् सदा स्मर्तुम् हरिर्नामैव केवलम् निःश्वासेन हि विश्वास कदा रुद्धो भविष्यति कीर्तनीयमतो बाल्याद्धरे नामैव केवलम् हरिः सदा वसेत्तत्र यत्र भागवता जना गायन्ति भक्तिभावेन हरिर्नामैव केवलम् अहो दुःखम् महादुःखम् दुःखाद्दुःखतरम् यतः काचार्थम् विस्मृतम् रत्नम् हरिर्नामैव केवलम् दीयताम् दीयताम् कर्णो नीयताम् नीयताम् वचः गीयताम् गीयताम् नित्यम् हरिर्नामैव केवलम् तृणीकृत्य जगत् सर्वम् राजते सकलोपरि चिदानन्दमयम् शुद्धम् हरिर्नामैव केवलम् इति कैवल्याष्टकम् सम्पूर्णम्।